अथ पापदेशना नाम द्वितीयः परिच्छेदः। तच्चित्तरत्न ग्रहणाय सम्यक् पूजां करोम्येष तथागतानां सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां सगुणोदधीनां।